इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्य वार्ताः। गृहमन्त्री अमितशाहः साम्रेडितवान् यत् वायनाडे भयंकर भूस्खलन जन्य विनाशात् जनानां रक्षण साहाय्यार्थं केन्द्र सर्वकारः केरल शासनाय सर्वविध साहाय्यम् उपपादयिष्यति। तत्र मृतकानां संख्या पञ्चषष्ट्युत्तरैकशतं सम्प्राप्ता। प्रशासनेन प्रोदितं यत् बुलेट ट्रेन इति अत्याधुनिक गोलिकागतिकस्य रेलयानस्य परियोजना सजवं प्रवर्धते। त्र्यशीत्युत्तरैकोनविंशतितमवर्गवर्षस्य प्रशासनिकाधिकारी प्रीतिसूदनवर्या संघलोकसेवायोगस्य अध्यक्षा नियुक्तास्ति। हमास इत्यातंकिगुल्मस्य राजनीतिक प्रमुखः इस्माइल हानिया ईरानस्य राजधान्यां निहतः। अपि च पेरिस ओलंपिक महाकुम्भे मुष्टामुष्टि क्रीडिका लवलीना बरगोहाई उपान्त्यचक्रं प्राविशत्। पीवी सिन्धुः लक्ष्यसेनः श्रीजा अंकुलाश्च प्रागुपान्त्यचक्रं प्रविष्टवन्तः। लक्ष्यवेधकः स्वप्निलः कुशालेः पुरुषाणां 50 मीटरमितायां भुशुण्डिका लक्ष्यवेधनस्पर्धायां अन्त्यचक्रीयद्वन्द्वाय समर्हो जातः। अथ वार्ताः विस्तरेण। केरले सुरक्षोद्धारकर्मिभिः वायनाडस्य मुण्डक्कई मध्ये शवानां निष्कासनं समारब्धम् अस्ति, यत्र दुरापन्ने भीषण भूस्खलनस्य कारणेन बृहन्मात्रायां जनधनक्षतिः जातास्ति। आमान्यते यत् मृत्तिकान्तरे पाषाणखण्डानां अधस्ताच्च नैके शवाः निपीडिताः सन्ति। मलप्पुरम जनपदे चलियार नद्याः नैके शवाः निष्कास्यमाणाः सन्ति। ध्येयमस्ति यत् भूस्खलने नैके शवाः नद्यां प्रवाहिताः आसन्। साम्प्रतं यावत् अस्यां दुर्घटनायां मृतकानां संख्या समेध्य वर्धते तराम्। सूचना प्राप्तिं यावत् 65+100 मिताः जनाः मृत्युमुपगताः सन्ति। नैके पारेशतं व्रणिताः जनाः विभिन्नेषु चिकित्सालयेषु उपचाराधीनाः वर्तन्ते। एतदपि सूच्यते यत् अतोऽपि पारेशतं जनाः विलुप्ताः वर्तन्ते, किन्तु एषा संख्या इतोऽपि वर्धितुं शक्नोति। वायनाड भूस्खलन सन्दर्भे गृहमन्त्री अमितशाहः उक्तवान् यत् केरलराज्याय पूर्वमेव जुलाई मासस्य 23, 24, 25 च सुरक्षादृशा अतिवृष्टेः सञ्चेतनायाः सूचना प्रदत्तासीत्। राज्यसभायाः ध्यानाकर्षणसत्रे श्री अमितशाहः प्रोक्तवान् यत् एतदतिरिच्य अपि जुलाई 26 अतोऽपि एका अपरा सुरक्षा सञ्चेतना अतिवृष्टिमभिलक्ष्य राज्यशासनाय प्रदत्तासीत्। अमुना भणितं यत् आपदुद्धारबलमपि पूर्वमेव तत्र सम्प्रेषितमासीत्, परं केरलशासनेन तस्य बलस्य यथोचितं नियोजनं ससमयं नैवाचरितं, येन जनानामुद्धारकार्यमपि ससमयं न जातमिति। गृहमन्त्रिणा प्रोक्तं यत् यदि केरलशासनेन यथाकालं निर्देशान् अनुपाल्य सर्वमेवम् आचरितम् अभविष्यत् तदा मृतकानां संख्या इयती अधिका नैव वर्धिता स्यात्। प्रशासनेन अद्योक्तं यत् बुलेट ट्रेन इति गोलिकागत्यात्मक रेल परियोजना सजवं वर्धमानास्तीति। अद्य लोकसभायां प्रश्नकालावधौ पूरक प्रश्नस्योत्तरे रेलमन्त्रिणा अश्विनी वैष्णवेन प्रोक्तं यत् राष्ट्रे प्रथम परियोजनात्वेन अन्तःसागरीय 30 किलोमीटर परिमितस्य निम्नस्तरस्य 21 किलोमीटर दूरतायुतस्य च रेलगुहामार्गस्य निर्माणकार्यं क्रियते। तेनोक्तं यत् परियोजनायाः 20+300 किलोमीटर पर्यन्तस्य मार्गस्य आधारात्मकं कार्यं सम्पन्नमिति। पूर्व केन्द्रीय स्वास्थ्य सचिवत्वेन नियुक्ता 83-29 वर्गस्य प्रशासनिकाधिकारी प्रीतिसूदनः संघलोकसेवायोगस्य अध्यक्षा नियुक्तास्ति। राष्ट्रपतिना द्रौपदी मुर्मूवर्यया अस्याः नियुक्तेः स्वीकृतिः सन्दत्तास्ति। सा अगस्तमासस्य प्रथमदिवसतः कार्यभारं ग्रहीष्यति। सुश्री सूदनः डॉ मनोज सोनी इत्यस्य स्थानं ग्रहीष्यति, येन अस्य मासस्य प्रारम्भे एव स्वकार्यकालपूर्तेः प्रागेव पदत्यागो विहितः आसीत्। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। हमास इत्यातंकी गुल्मस्य राजनीतिक नेतुः इस्माइल हानियायाः तेहरान मध्ये हत्या जाता। ईरान देशस्य इस्लामिक रिवोल्यूशनरी गार्ड कॉप्स इत्याख्येन बलेन एकस्मिन् वक्तव्ये प्रतिपादितमस्ति यत् हानिया तशैकः अंगरक्षकश्च ईरानस्य राजधान्यां तस्य आवासे एव पञ्चतां प्रापितौ। हानिया ईरान राष्ट्रपतेः मसूद पेजेशकियानस्य शपथग्रहण समारोहे भागं भजितुम् आगतः आसीत्। ध्येयमस्ति यत् हानिया हमासातंकी गुल्मस्य पक्षतः भूरिशान्तिवार्तासु सक्रियः अवर्तत। झारखण्ड राज्ये दक्षिण मध्य रेलवे इत्यस्य टाटानगर चक्रधरपुर रेल प्रभागे यातायात व्यवस्थायाः पुनारचनाय युद्धस्तरेण कार्याणि सम्पाद्यन्ते। हावड़ा मुंबई मेल इत्यस्य अष्टादश शायिकासु षोडश शायिकाः रेलमार्गात् अपसारिताः सन्ति। सर्वासां शायिकानां अपसारणानन्तरमेव मार्गस्य समीचीनीकरणं वैद्युतीकरणस्य च कार्याणि सम्पत्स्यन्ते। ध्यातव्यमस्ति यत् ह्यः प्रातः हावड़ा मुंबई रेलयानस्य अष्टादश शायिकाः रेलमार्गपट्टिकातः अवतीर्णाः, येन रेलयात्रा च बाधितास्ति। दक्षिणपश्चिम रेलप्रभागस्य महाप्रबन्धकः अनिलकुमार मिश्रः उक्तवान् यत् अस्मिन् प्रभागे रेलयान यातायात सेवायाः पुनरारम्भस्य प्रयासो विधीयते। वियतनामदेशस्य प्रधानमन्त्री मिन् चिन्ह वर्यः निज त्रिदिवसीय यात्रायां सद्रिभ्य अद्य नवीनां दिल्लीं सम्प्राप्तोऽस्ति। अनेन सह अस्यां यात्रायां नैके मन्त्रिणः उपमन्त्रिणः औद्योगिकाः प्रतिनिधिमण्डलञ्चापि सहभूताः सन्ति। वियतनामदेशस्य प्रधानमन्त्री श्रीनरेन्द्रमोदिना समं द्वैपाक्षिक मन्त्रणोपवेशनं करिष्यति। एतस्य सत्कारे प्रधानमन्त्री श्रीनरेन्द्रमोदी रात्रिभोजनस्य आयोजनमपि करिष्यति। श्रीमिन्हचिह्नः राष्ट्रपतिना श्रीमत्या द्रौपदी मुर्मूवर्यया, उपराष्ट्रपतिना श्रीजगदीप धनखड़वर्येण, विदेशमन्त्रिणा डॉ एस जयशंकरवर्येण च साकमपि सम्भाषणम् आचरिष्यति। फ्रांस देशस्य पेरिस नगरे प्रवर्तमाने ओलंपिक क्रीडा महाकुंभे अद्य पंचमे दिवसे भारतीयाः क्रीडकाः मुष्टा मुष्टि क्रीडायां, लक्ष्यवेधने, बैडमिंटन स्पर्धायां, लक्ष्यसंधाने च स्पर्धिष्यन्ति। वारद्वयं यावत् ओलंपिक पदकस्य विजेत्री लवलीना बोरगोहाई स्वीय द्वितीय समूहस्य द्वन्द्वे एस्टोनिया मध्ये क्रिस्टिन कुश इत्येषां सम्मुखीकरिष्यति। टेबल टेनिस स्पर्धायां श्रीजा अंकुला प्रागुपान्त्य चक्रीयं द्वन्द्वं प्रविश्य ऐतिह्यं रचितवती। एषा द्वितीया भारतीया क्रीडिका वर्तते या एवं कर्तुम् अपारयत्। अनया विश्वमानांकने द्विपञ्चाशे स्थाने समारूढा सिंगापुरदेशीया जैन जिंग इत्येषा अंकद्वयं विरुध्य चतुर्भिरंकैः पराभूताः। अन्ते मुख्यवार्ताः पुनरेकवारम्। गृहमन्त्री अमितशाहः साम्रेटितवान् यद् वायनाडे भयंकर भूस्खलन जन्य विनाशात् जनानां रक्षण साहाय्यार्थं केन्द्रसर्वकारः केरल शासनाय सर्वविध साहाय्यम् उपपादयिष्यति। प्रशासनेन प्रोदितं यद् बुलेट ट्रेन इति अत्याधुनिक गोलिका गतिकस्य रेलयानस्य परियोजना सजवं प्रवर्धते। त्र्यशीत्युत्तरैकोनविंशतितम वर्षवर्गस्य प्रशासनिकाधिकारी सुश्री प्रीतिसूदनवर्या संघलोकसेवायोगस्य अध्यक्षा नियुक्तास्ति। हमास इत्यातंकी गुल्मस्य राजनीतिक प्रमुखः इस्माइल हानिया ईरानस्य राजधान्यां निहतः। अपि च पेरिस ओलंपिक महाकुंभे मुष्टामुष्टि क्रीडिका लवलीना बरगोहाई उपान्त्यचक्रं प्राविशत्। पीवी सिंधुः, लक्ष्यसेनः, श्रीजा अंकुला च प्रागुपान्त्यचक्रं प्रविष्टवन्तः। लक्ष्यवेधकः स्वप्निलः कुशालेः पुरुषाणां 55 मीटर मितायां भुशुण्डिका लक्ष्यवेधन स्पर्धायां अन्त्यचक्रीय द्वन्द्वाय समर्हो जातः इति वार्ताः।